प्रातःसन्त्रस्तभोजक्षितिपतिवचसा प्रस्तुते मल्लतूर्ये सङ्घे राज्ञां च मञ्चान् अभियुषिगते नन्दगोपेऽपि हर्म्यं कंसे सौधाधिरूढे त्वमपि सहबलः सानुगश्चारुवेषः रङ्गद्वारं गतो भूः कुपितकुवलया पीड नागावळीढं पापिष्ठ अपेहि मार्गात् द्रुतमिति वचसा निष्ठुरक्रुद्धबुद्धेः अम्बष्ठस्य प्रणोदात् अधिकजवजुषा हस्तिना गृह्यमाणः केळीमुक्तोऽथ गोपीकुचकलशचिरस्पर्धिनं कुम्भमस्य व्याहत्य अलीयथास्त्वं चरणभुवि पुनः निर्गतो वल्गुहासी हस्तप्राप्योऽपि अगम्यः झटिति मुनिजनस्येव धावन् गजेन्द्रं क्रीडन् आपत्यभूमौ पुनरभिपततः तस्य दन्तं सजीवं मूलात् उन्मूल्य तन्मूलगमहितमहामौक्तिकानि आत्ममित्रे प्रादाः त्वं हारमेभिः ललितविरचितं राधिकायै दिशेति गृह्णानं दन्तमंसे युतमथहलिना रङ्गम् अङ्गाविशन्तं त्वां मङ्गल्याङ्गभङ्गी रभसहृतमनोलोचना वीक्ष्यलोकाः हंहो धन्योऽनुनन्दः नहि नहि पशुपालाङ्गनाः नो यशोदा नो नो धन्ये क्षणा स्मः त्रिजगति वयमेवेति सर्वे शशंसुः पूर्णं ब्रह्मैव साक्षात् निरवधिपरमानन्दसान्द्रप्रकाशं गोपेषु त्वं व्यलासीः न खलु बहुजनैः तावत् आवेदितो भूः दृष्ट्वाथ त्वां तदा इदं प्रथमम् उपगते पुण्यकाले जनौघाः पूर्णानन्दाः विपापाः सरसमभिजगुः त्वत्कृतानि स्मृतानि चाणूरो मल्लवीरस्तदनु नृपगिरा मुष्टिको मुष्टिशाली त्वां रामं चाभिपेदे झटझटिति मिथो मुष्टिपातातिरूक्षम् उत्पातापातनाकर्षण विविधरणानि आसतां तत्र चित्रं मृत्योः प्रागेव मल्लप्रभुः अगमदयं भूरिशो बन्धमोक्षान् हाधिक्कष्टं कुमारौ सुललितवपुषौ मल्लवीरौ कठोरौ न द्रक्ष्यामः व्रजामस्त्वरितम् इति जने भाषमाणे तदानीं चाणूरं तं करोद्ब्राह्मण विगळदसुं पोथयामासिथोर्व्यां पिष्टोऽभूत् मुष्टिकोऽपि द्रुतमथ हलिना नष्टशिष्टैः दधावे कंसः संवार्यतूर्यं खलमतिरविदन् कार्यम् आर्यान् पितॄंस्तान् आहन्तुं व्याप्तमूर्तेः तव च समशिषत् दूरमुत्सारणाय रुष्टो दुष्टोक्तिभिस्त्वं गरुड इव गिरिं मञ्चम् अञ्चन् उदञ्चत् खड्गव्यावल्गदुःसङ्ग्रहमपि च हठात् प्राग्रहीः औग्रसेनिं सद्यो निष्पिष्टसन्धिं भुवि नरपतिमापात्य तस्योपरिष्टात् त्वय्यापात्येतदैव त्वदुपरिपतिता नाकिनां पुष्पवृष्टिः किं किं ब्रूमस्तदानीं सततमपि भिया त्वद्गतात्मा स भेजे सायुज्यं त्वद्वधोत्था परम परमियं वासना कालनेमेः तद्भ्रातॄन् अष्टपिष्ट्वा द्रुतमथ पितरौ सन्नमन् उग्रसेनं कृत्वा राजानम् उच्चैर्यदुकुलमखिलं मोदयन् कामदानैः भक्तानामुत्तमं च उद्धवम् अमरगुरोराप्तनीतिं सखायं लब्ध्वा तुष्टो नगर्यां पवनपुरपते रुन्धिमे सर्वरोगान् ॐ तत्सदिति श्रीमन्नारायणीये पञ्चसप्ततितमं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।